एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति देशाभ्यन्तरे समेषाम् जनानाम् भविष्यस्य सुनिश्चिततायाः वातावरणम् स्रष्टुम् शिक्षायाः व्यवस्थापनस्य च गुणस्तरस्य अभिवृद्धिः कर्तव्या। कृषि वन विज्ञान विश्वविद्यालयस्य चतुर्थम् दीक्षान्त समारोहम् ह्यः चितवन जनपदे सम्बोधयन् प्रधानमन्त्री प्रचण्डः शैक्षिक गुणस्तर वृद्धिम् कृत्वा युवसन्तत्यै स्वदेशे एव अवसरो वर्तते इति सन्देहस्य प्रवाहणाय निरदिशत। प्रधानमन्त्री प्रचण्डः कृषि विज्ञाने प्रवेशकानाम् विद्यार्थिनाम् पशु चिकित्सा विद्यायै आवेदक प्रदातृणाम् विद्यार्थिनाम् च संख्या वर्धमानास्ति। पशु चिकित्सायाम् शत प्रतिशतम् विद्यार्थी संख्याया प्रवर्धनाय प्रयास विधीयमानोस्तीति च ज्ञात्वा आत्मनि सन्तोषोऽस्तीति प्रावोचत। प्रधानमन्त्री प्रचण्डः विश्वविद्यालयानाम् वैज्ञानिकैः मयि शिशु सर्वस्मिन् समये प्रजननशक्तेः प्रविधेः गोधूमे उष्णता सहनक्षमस्य बीजजातस्य प्रविधेश्च विहितम् विकासम् प्रति प्रसन्नताम् अभिव्यनक। तदवसरे प्रधानमन्त्री प्रचण्डः आगामि दिनेषु विश्वविद्यालयस्य कृते आवश्यक जनशक्तेः व्यवस्थापनाय सर्वकारस्य पक्षतः सहयोगो भविष्यति इति विश्वासम् अदापयत। प्रधानमन्त्री प्रचण्डः निर्मीयमाणानाम् संकायानाम् महाविद्यालयानाम् विज्ञानकेन्द्राणाम् शैक्षिकभवनानाम् एकीकृतानुसन्धान प्रयोगशालायाः जैविक सुरक्षा प्रयोगशालायाश्च निर्माण कार्यम् शीघ्रम् सम्पादयितुम् निरदिशत। ह्य एव भरतपुर विमानस्थले पत्रकारै सह प्रधानमन्त्री प्रचण्डः समग्रतः आयव्ययकम् सन्तोषजनकम् अस्तीति प्रावोचत। प्रधानमन्त्री प्रचण्डः सुशासनस्य न्यायस्य सामाजिक समृद्धेश्च क्षेत्रेऽपि बहवः अनुकूल प्रयासाः विहिताः सन्तीति असूचयत। जर्मनी देशस्य औपचारिके भ्रमणे विद्यमानाय राष्ट्रपतये रामचन्द्र पौडेलाय जर्मनी सर्वकारेण सैनिक सम्मानम् अर्पितमस्ति। नेपाल जर्मनी देशयोः राष्ट्रपतयोः द्विपक्षीय मेलवार्तातः पूर्वं राष्ट्रपतये पौडेलाय सम्मानमिदम् अर्पितमस्तीति राष्ट्रपतेः संचार परामर्शदाता किरण पोखरेलः अज्ञापयत्। जर्मनी देशे ह्य राष्ट्रपतिना पौडेलेन तात्कालिकयोः पूर्व पश्चिम जर्मनी देशयोः भग्न बर्लिन भित्तेः अवलोकनम् विहितमासीत्। तदवसरे भ्रमणदलस्य सदस्यापि सहभागिनः आसन्। स्विट्जरल्याण्ड देशस्य जेनेभा नगरे द्वादशोत्तर शततमे अन्तर्राष्ट्रिय श्रम सम्मेलने सामाजिक न्यायस्य कृते विश्वव्यापिनः गठबन्धनस्य उद्घाटन सत्रे च सहभागी भूत्वा जर्मनी देशस्य राष्ट्रपतेः मैत्रीपूर्ण निमन्त्रणायाम् राष्ट्रपतिः पौडेलः शनिवासरस्य रात्रौ जर्मनीदेशम् सम्प्राप्तोऽस्ति। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सह विश्वकोषागारस्य वरिष्ठ प्रबन्ध निर्देशकेन एक्सेल भान स्ट्रोकसेनबर्ग इत्यनेन शिष्टाचार मेलवार्ता विहिता अस्ति। बालवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य सम्भूते मेलने एतयोर्मध्ये नेपालस्य विकासाय विश्वकोषेण विहितस्य सहयोगस्य विविधेषु विषयेषु विमृष्टमिति प्रधानमन्त्रिणः प्रचण्डस्य सचिवालयेन ज्ञापितम् वर्तते। तदवसरे प्रधानमन्त्री प्रचण्डः सबल विकासस्य सहयात्रिणा विश्वकोषेण षड्भिः दशकैः नेपालस्य विकासाय वित्तपोषणाय च विश्वसनीय स्रोतसाम् प्रदानम् विधीयमानम् अस्तीति अवोचत। नेपालः जलवायु परिवर्तनस्य कारणेन प्रभावितोऽस्तीति चर्चयन् प्रधानमन्त्री प्रचण्डः जलवायु न्यायस्य कृते नेपालेन विभिन्नेषु अन्तर्राष्ट्रिय मञ्चेषु विषयोऽयम् उत्थाप्यमानोऽस्ति, तत्र विश्वकोषस्य सहयोगो भविष्यति इति च विश्वासम् अभिव्यनक। तदवसरे विश्वकोषस्य निर्देशकः स्ट्रोकसेनबर्ग नेपालस्यार्थिक विकासाय विश्वकोषः आवश्यक सहयोगम् विधातुम् तत्परोऽस्तीति अवोचत। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः दलाभ्यन्तरे विचारे कथम् विदोपि मतभेदो नास्तीति निश्चिनोति। समाजवादी दल सम्बद्धेन अखिल नेपाल महिला संघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे अध्यक्षो नेपालः दलेन नेतृणाम् कार्यकर्तृणाम् च सामूहिक विमर्शनानन्तरमेव आगामिनी महाधिवेशने प्रस्तोष्यमाणं राजनीतिकं सांगठनिकं च प्रतिवेदनं निर्मितमस्तीति च विषयेणापि विचारे कथंविदोऽपि मतभेदो नास्तीति पुष्टीकृतमस्तीति अतर्कयत्। सर्वकारेण सह चतुःसूत्रीय सहमतेरनन्तरम् आन्दोलनरतस्य नेपाल तैलेन्धन यान चालक संघस्य आन्दोलनम् समाप्तम् वर्तते। उद्योग वाणिज्यापूर्ति मन्त्रालये ह्य सम्भूतायाम् वार्तायाम् सहमते धरणस्य अनन्तरम् आपणेषु इन्धनापूर्ति सहजतया जायमाना स्थिति नेपाल तैल निगमस्य प्रवक्ता मनोज ठाकुरः अज्ञापयत्। नेपाल तैल निगमस्य संचालक समितेः अध्यक्षस्य वाणिज्य सचिवस्य दिनेश कुमार घिमिरे इत्यस्य उपस्थितौ सम्पन्नायाम् वार्तायाम् सहमति इयम् सम्भूता अस्ति। सहमतिपत्रे निगमस्य कार्यकारी निर्देशकः चण्डिका प्रसाद भट्ट संघस्य अध्यक्ष ईश्वर लामा च हस्ताक्षराणि विहितवन्तौ। संघीय संसदः पदाधिकारिणाम् राजनीतिक दलानाम् प्रमुख सचेतक पदीयानाम् च संयुक्तोपवेशे संघीय संसद सचिवालयस्य कर्मचारिणाम् याचनायाः विषये अर्थमन्त्रिणा सह विमर्शनाय सहमतिः धृतास्ति। सभामुखस्य देवराज घिमिरे विदस्य कार्यकक्षे ह्यः सम्पन्ने उपवेशे संसद सचिवालयस्य कर्मचारिणाम् याचनाः समुचिताः सन्तीत्यतः वित्त व्यवस्थादि विषयेषु अर्थमन्त्रिणा सह विमर्शतुम् सहमतिः सम्भूता अस्ति। नेपाल प्रहरीणा केन्द्रीय अनुसन्धान निकायेन 6 किलो परिमाणस्य सुवर्ण पदार्थेन सह एक चीन देशीयो नागरिक निगृहितो वर्तते। निगृहित 37 वर्षीय चीन देशीय नागरिक सोनाम गुरूङ अस्थिति केन्द्रीय अनुसन्धान निकायस्य प्रवक्ता प्रहरी उपरीक्षक होविन्द्र बोगटी अज्ञापयत्। निगृहितस्य गुरूङ इत्यस्य गृहात् प्रहरीणा 48 लक्षाणि रूप्यकाणि अपि नियन्त्रितानि सन्तीति निकायेन ज्ञापितमस्ति। मेलञ्ची पेयजल विकास समित्या वर्षाज विपदा आयोजनायाम् सम्भाविताया क्षतेः न्यूनीकरणाय नद्याः जलस्य दूषणात् सद्यैव पेयजलस्य पिदापनाय पूर्वकार्यम् विहितम् वर्तते। विपुलवृष्टे पश्चात् मेलञ्ची नद्याः दूषणस्य प्रारभणस्य 10 निमेषानाम् अभ्यन्तरे एव मेलञ्ची नद्याः जलम् पिधातुम् शक्यते इति समिते कार्यकारी निर्देशकः रत्नलामी छाने अज्ञापयत। प्रतिदिनं 17 कोटि लिटर मितं जलम् उपत्यकावासिभ्यः वितीर्यते इति कथितं सदपि सम्प्रति मेलञ्ची पेयजलायोजनातः प्रतिदिनं 20 कोटि लिटर मितं जलम् वितीर्यमाणमस्तीति असूचयत्। अद्य निर्जला एकादशी पर्व अवसरेऽस्मिन् अद्य प्रत्येकं वैदिक सनातन धर्मावलम्बिनां गृहवर्तिषु मठेषु तुलसीदलस्य बीजानि विक्रियन्ते। अद्य विकीर्णानि बीजानि मासानन्तरम् आषाढशुक्लस्य हरिशयन्येकादश्यां तिथौ तुलसीदलानि रोप्स्यन्ते। आषाढशुक्ल एकादशीतः कार्तिक शुक्ल एकादशी पर्यन्तं चतुर्मासे तुलसीदलस्य विशेषेण पूजाराधनं विधीयते। तदवसरे विशेषतः विष्णु भगवतः पूजाराधनायै मन्दिरेषु भक्तजनानां सम्मर्दो भवति इति समाचाराः।